ज्ञानार्थवाचको गश्च नश्च निर्वाणवाचकः तयोरीशं पदं ब्रह्म गणेशं प्रणमाम्यहम्। एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम्। दीनार्थवाचको हेश्च रम्भः पालकवाचकः दीनानां परिपालकम् हे रम्भं प्रणमाम्यहम्। विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः विपत्खण्डनकारकम् नमामि विघ्ननायकम्। विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम्। शूर्पाकारौ च यत्कर्णौ विघ्ननिवारणकारणौ सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम्। विष्णुप्रसादपुष्पं च यन्मूर्ध्निमुनिदत्तकम् तत् गजेन्द्रवक्त्रयुतम् गजवक्त्रं नमाम्यहम्। गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्। नामाष्टकं दुर्गे नामभिः संयुतं परम् पुत्रस्य पश्च वेदे च तदा कोपं यथा कुरु। एतन्नामाष्टकं स्तोत्रं नानार्थसंयुतं शुभम् त्रिसन्ध्यं यः पठे नित्यं स सुखी सर्वतो जयी। ततो विघ्ना पलायन्ते वैनते याद् यथो रगः गणेश्वर प्रसादेन महाज्ञानी भवेद् ध्रुवम्। पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलं स्त्रियं महाजडः कविन्द्रश्च विद्यावांश्च भवेद् ध्रुवम्। अर्धचंद्रधरं देवं विघ्नव्यूह विनाशनम् ओम ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हेरम्बाय नमो नमः सर्वसिद्धिप्रदो सिद्ध्वं सिद्धिबुद्धिप्रदो भव। चिन्तितार्थप्रदस्त्वं हि सततं मोदकप्रिय सिन्दूरारुणवस्त्रश्च पूजितो वरदायक। इदं गणपतिस्तोत्रं यः पठेत् भक्तिमान् नरः तस्य देहं च गेहं च स्वयं लक्ष्मी नमुञ्चति।
Thank you. पुत्रो व्याद भालं पातु विनायकः त्रिनेत्रः पातु मे नेत्रे शूर्पकर्णो वतु श्रुतिः हेरम्बो रक्षतु घ्राणां मुखं पातु गजाननः जिह्वां पातु गणेशो मे कण्ठं श्रीकण्ठवल्लभः स्कन्धौ महाबलिः पातु विघ्नः पातु मे भुजौ करौ परशुभृत् पातु हृदयं स्कन्दपूर्वजः जघनम् पार्वती पुत्रः सक्थिनी पातु पाशभृत् जानुनी जगतान्नाथो जङ्घे मूषकवाहनः पादौ पद्मासनः पातु पार्श्वयोर्मोदकाहारो दिग्विदिक्षु स सद्विदः व्रजतस्तिष्ठतो वापि जाग्रतः स्वपतोष्णतः चतुर्थी वल्लभो देवः पातु मे भुक्ति मुक्तिदः सृष्टि